एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एमाले दलेन दलस्य नेत्रा माधव कुमार नेपालेन सह संघीय संसद सप्तविंशतिः कर्णाली प्रदेशस्य पञ्च चेति कृत्वा द्वात्रिंशते सांसदेभ्य स्पष्टीकरणं पृष्टं वर्तते। दलस्य गतिविधीनां संसदीय दलस्य अनुशासनस्य च उल्लंघनस्य आरोपे सप्तविंशति संघीय सांसदेभ्य कर्णाली प्रदेशस्य पञ्चभ्य प्रदेशसभा सदस्येभ्यश्च दलेन स्पष्टीकरणं पृष्टमिति एमाले दलस्य कार्यालय सचिव ईश्वरी रिजाल अज्ञापयत्। नेकपा एमाले दलस्य अध्यक्षेण एमाले संसदीय दलस्य नेत्रा प्रधानमन्त्रिणा च केपी शर्मा ओलिना पृष्टस्य स्पष्टीकरणस्य पत्रम् ह्यैव एतेभ्यो नेतृभ्य प्रेषितमस्तीति कार्यालय सचिव रिजाल अवोचत्। नेकपा माओवादी केन्द्रस्य स्थायी समितेः उपवेश ह्य उपविष्टः। पेरिस डाँडावर्तिनी दलस्य मुख्यालय उपविष्टे उपवेशे सामयिकेषु राजनैतिक प्रवृत्तिषु विषयेषु विमृष्टमिति माओवादी केन्द्रेण ज्ञापितं वर्तते। उपवेशस्य पश्चात् संचारकर्मिभ्य माओवादी केन्द्रस्य प्रवक्ता नारायणकाजी श्रेष्ठ सर्वकाराय दलस्य समर्थनं नास्ति, विषयस्यास्य औपचारिकरूपेण लिखित्वा प्रदानाय एव अवशिष्टमस्तीति अज्ञापयत्। असौ अवोचत् संघीय संसद वर्तमानाधिवेशनस्य समापनं दुःखदं वर्तते, कार्यमेतत् दलेन विरुध्यते। एवमेव उपवेशेन कोरोना संक्रमणस्य द्वितीय लहरी दृष्टास्थिति कारणात् अस्याः नियन्त्रणाय उचितं निर्णयं कर्तुं सर्वकारम् अनुरुन्धता। महामार्याः नियन्त्रणाय सहयोगं समन्वयं च विधातुं दलपंक्तिः निर्दिष्टास्थिति प्रवक्ता श्रेष्ठः अज्ञापयत्। माओवादी केन्द्रस्य स्थायी समितेः उपवेश अद्य दिवा एकवादने पुनः वसति। गतदिने आराष्टम अतिरिक्तेषु सहस्रे सप्तशते षट् त्रिंशति च जनेषु कोरोना विषाणो संक्रमणं पुष्टीभूतं वर्तते। आराष्टम अष्टसहस्राणां सप्तशतस्य अष्टात्रिंशतश्च निदर्शनानां परीक्षणं विहितं सत् सहस्रे सप्तशते षट् त्रिंशति च जनेषु संक्रमणं पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयस्य तथ्याङ्कानाम् अनुसारेण गतदिने वर्षाणाम् ऊनविंशतितः न्यूनवयस त्रिनवत्यधिक शते जनेषु कोरोना संक्रमणं सम्भूतं वर्तते। एवमेव विंशतितः ऊनः पञ्चाशतो वयः समूहस्य व्यक्तिषु संक्रमणस्य अंकमानः उच्चैरस्ति। कोरोना संक्रमणस्य कारणेन पूर्वेद्युः अतिरिक्ताः एकादश जनाः अम्रियन्त। एतदनु संक्रमणस्य कारणेन नेपाले मृतानां जनानां समग्र संख्या सहस्रत्रयं शतं द्वे च प्राप्तेति स्वास्थ्य मन्त्रालयो ज्ञापयति। ह्य अतिरिक्ताः एकपञ्चाशदधिक शतद्वयं जना कोरोना संक्रमणात् मुक्ताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रिणा हृदेश त्रिपाठिना कोरोना विषाणोः संक्रमणस्य नियन्त्रण निरोधनयोः कृते सर्वकारेण प्रदत्तान् आदेशान् स्वास्थ्य सुरक्षायाः मापदण्डान् च अनिवार्यतया पालयितुं सर्वे अनुरुद्धाः सन्ति। मन्त्रालयेन ह्य अनलाइन प्रविधिर माध्यमेन आयोजिते पत्रकार सम्मेलने मन्त्री त्रिपाठी सर्वकारेण क्रियान्वितान् आदेशान् परिपाल्य कोरोना संक्रमणस्य नियन्त्रण निरोधनयोः सहयोगं प्रापयितुम् अन्वरुणत। मन्त्री त्रिपाठी अवोचत् सर्वकारस्य आदेशानां पालनाभावे परिपिधानस्य अवस्थापि सम्भविष्यति। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड उनविंशतेः संक्रमणं वर्धमानमस्तीत्यतः शय्यानाम् उपलब्धतायाः उपचारस्य सुनिश्चिततायाश्च विषये समन्वयं विधायैव रोगिणः अन्यचिकित्सालयं प्रेषयितुं सर्वे चिकित्सालयाः निर्दिष्टाः वर्तन्ते। ह्य मन्त्रालयस्य नीति योजना नुगमन महाशाखायाः प्रमुखः डा गुणनिधि लोहनी सर्वेषु चिकित्सालयेषु पत्राचारं विधाय कमपि चिकित्सालयं प्राप्तानां रोगिणाम् आकस्मिकोपचारं व्यवस्थापनं च विधाय अन्य चिकित्सालयं प्रेषणीयं सदा आवश्यक समन्वयं विधायैव च प्रेषयितुं निरदिशत। विसर्जनीयाः मुखावरणिकाः पिहितायाम् अवकरमञ्जुषायां लचक पदार्थ निर्मिते स्वीतेवा पिधाय पञ्चदिनानि अनिवार्य रूपेण सुरक्षिततया स्थापनीयाः भवन्ति। काष्ठमण्डप जनपद प्रशासन कार्यालयेन गतदिने सूचनां प्रकाश्य गृहे सार्वजनिक स्थानेषु च स्वेच्छानुसारेण स्थीवनं न कर्तुं प्रयुक्ताः मुखावरणिकाः यत्र तत्र न त्यक्तुं च अनुरुद्धं वर्तते। गृह मन्त्रालयात् प्राप्तस्य निर्देशनस्य अनुसारेण सावधानताम् अवलम्बितुम् अनुरुध्य आदेशस्य अपालकाः जनाः विंशत्यधिक द्विशततम विक्रम संक्रामक रोगादि नियमान् आश्रित्य दण्ड्यन्ते इति काष्ठमण्डपस्य प्रमुख जनपदाधिकारी कालीप्रसाद पराजुली अज्ञापयत्। कोरोना विषाणोः संक्रमणस्य तीव्रं प्रसरणमनु बांके जनपदे सप्ताहाय परिपिधानं विधास्यते। जनपदे स्व वैशाखस्य नवम दिवसात् परिपिधानं विधातुं निर्णीतमिति बांके जनपदस्य प्रमुख जनपदाधिकारी शिवराम गेलालः ज्ञापयति। अद्य चैत्र शुक्ल नवम्यां रामनवमी पर्व मर्यादा पुरूषोत्तमस्य श्रीरामस्य जन्मतिथि रूपेण समाद्रियते। त्रेतायुगे पुरा भगवान् श्रीनारायणः अयोध्या नरेशस्य दशरथस्य राज्ञः कौसल्यायाश्च ज्येष्ठपुत्ररूपेण अस्मिन् धराधामनि अवतीर्य धर्मद्वेषिणो राक्षसान् अवधीत। पितृभक्ति मातृप्रेम जनरञ्जन धर्मस्थापनादि कर्मभिः असौ लोकमनसि समधिकम् आदरपात्रञ्च बभूवेति स्मृतौ। अद्य रामजानक्योः पूजाराधने विधीयते। अद्य जनकपुर धामनि विशेष मेला आयोज्यते, यत्र देशात् विदेशाच्च सीता रामयोः दर्शनार्थं श्रद्धालवः उपतिष्ठन्ते। अस्मिन् वर्षे कोरोना संक्रमणस्य कारणात् स्वास्थ्य सुरक्षाया मापदण्डम् अवलम्ब्य राम मन्दिरेषु दर्शन पूजन स्तवनादि कार्याणि विधीयन्ते। अत्रान्तरे प्रधानमन्त्रिणा केपी शर्मा ओलिना विशेष पूजां विदाय आनीतैः सीतारामयोः विग्रही सहिता शोभायात्रायोः देवघाटस्थाने अभ्यर्थिता वर्तते। देवघाटस्थाने विभिन्न मठानां पीठाधीशैः विभिन्नैः समूहैः स्थानीय प्रतिनिधिभिश्च यात्रा अभ्यर्थिता वर्तते। तत्पूर्वम् इह एव माणिस्थानस्य अयोध्याधामनि निर्मिते मन्दिरे स्थापयितुं बाल्वाटारवर्तिनः प्रधानमन्त्रिनिवासाद् भगवद्मूर्तयः मंगलध्वनिं पूजापाठं च विधाय प्रधानमन्त्रिणः ओलिनः एतदीय धर्मपत्न्याः राधिका शाक्यस्य च उपस्थितौ चितवन जनपदं प्रेषिताः आसन्। प्रधानमन्त्रिणो निवासात् राष्ट्रपति कार्यालयं प्राप्ता रथयात्रा राष्ट्रपतिना विद्यादेवी भण्डारिणा च अभ्यर्थिता आसीत्।